प्रकृतान् ऋजीषिणः कण्वा इन्द्रस्य गाथया मदे सोमस्य वोचत यस्रविन्दमनर्शनिम् विप्रम् दासमहेशवम् वधेदुग्रोरिडन्नपः न्यर्बुदस्य विष्टवम् वर्ष्माणम् बृहतस्थिर कृषेददिन्द्रपुंस्यम् प्रतिश्रुता च वो धृषत्तोर्णाशन्नगिरेरधि हुबे सुषिप्रभोतजे सगोरश्वस्य विव्रजम् मन्दानः सोम्येभ्यः पुरन्नशोरदर्शसि यदि मे रारणः सुत उक्थे बादधसेचनाः आरादुपस्वधागहि वजङ्घाते अपिश्वसि स्तोतार इन्द्रगिरवणः वन्नोजिन्वसोमपाः उदनः पितुमाभरसम्रराणो अवीक्षिताम् मघवन्भोरिदेवसो उदनो गोमतस्कृतिहिरण्यवतो अश्विनाः इलाभिः सम्रभेमहि बृहदुक्थम् हवामहे स्रप्रकरस्तमोदजे साधु कृण्वन्तमवसे यः संस्थे चिच्छतक्रतुरादीम् कृणोति वृत्रः जलिद्रभ्यः पुरोवसोः स नः शक्रश्चिदाशकद्दानवाङ्कन्दराभरः इन्द्रो विश्वाभिरोतिभिः यो राजो अवनर्महान् सुपारस्वम् वदस्सखा तमिन्द्रमभिवाजत आजन्तारम् महि स्थिरम् मृतनाशुश्रभोजितम् भूरेरीशा नमोजसा न किरस्य शचेनान्निजन्ता सोऽनृतानाम् न किर्भक्ता न दादिति न नोऽनम् ब्रह्मणा मृडम्ब्राशो नामस्ति सन्वताम् न सोमो अप्रतापपे पञ्च इदुपगाजत पञ्च उक्थानि शंसता ब्रह्मा कृणोत पञ्च इत पञ्च आदर्द्यरच्छता सहस्रा वाज्यवृतः इन्द्रो योजध्वनो वृधः द्विषोचरस्वधा अनुवृष्टीनामन्बाहुवाः इन्द्रपिबसुदानाम् पिबस्वधयेन वानामुतयस्तु ग्र्ये सजा उदायमिन्द्रजस्तव अरेः मञ्जशापिणम् सुषभाम् समुपारणे इमम् रातम् सुतम् विव इहि तिस्रः परावत इहि पञ्चजनाम् परि धेना इन्द्रावचाकशत सूर्यो रश्मिम् यथा सृजात्मा गच्छन्तु मे गिराः निम्नमापो न सध्यक अध्वर्जवातु हि शिञ्चसोमम् वीराजशिप्रणे भरा सुदस्य पीतजे य उद्नः फलिगम्भिनन्या अक्सिन्धोऽङ्घ्रवासृजत योगोश भक्वम् धारयत अहम् भ्रत्रमृतेशम और्णपाभमहेशुभम् हिमेना विद्यदर्बुदम् प्रभ उग्राय निष्ठुरेषाह्लाय प्रसक्षिणे देवत्तम् ब्रह्म गाजत यो विश्वान्यभिव्रता सोमस्य मदे अन्धसः इन्द्रो देवेषु चेतते इहत्यासधमाद्या हरिहिरण्यकेश्या वोल्हामभिप्रजो अहितम् अर्वाञ्चन्द्वापरुष्टदप्रियमेधस्तुदाहरी सोमपेदाजवक्षतः